ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः नमः
धन्यवादः महोदय सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लृङ् लकारः नूतनलकारः अत्र नूतनलकारः तत्र लृङ् इति तत्र द्वयोः लकारयोः मेलनं तत्र भूधातु तत्र पुटसङ्ख्या अस्ति 108 109 गतवर्गे अपि दृष्टवन्तः रघुवीरानन्दस्वामी तत्र एकवारं तत्र पुटसङ्ख्या 109 दृष्ट्वा नवाधिकशततमे पुटे एकं चित्रम् अस्ति तद्दृष्ट्वा एकवारं तत्र भू धातोः तत्र भवति इति अस्ति तदनन्तरं तत्र अभवत् इति लङ्लकारः लृट् लकारः अस्ति
भविष्यति
भविष्यति इदानीं तयोः मेलनं कृत्वा तत्र किं भवति
अभविष्यत्
अभविष्यत् इति अस्ति अतः तत्र लृङ्लकारः तत्र प्रथमतया तत्र लृङ्लकारस्य तत्र अर्थः कः इति तत्र प्रथमतया तत्र गतवर्गे अपि दृष्टवन्तः किन्तु एकवारं पुनः तत्र पश्यामः तत्र वाक्यं चिन्तयामः तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् तत्र अर्थः कः तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् कार्यं किमपि कार्यं कृतवान् स्यात् किन्तु तत्र किं भवान् उक्तवान् वा तत्र वाक्ये भवान् तत्र न उक्तवान् न एकं किम् एक उदाहरणवाक्यम् अहं वदामि यदि यदि रमेशः उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् इति वाक्यं यदि रमेशः उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् किन्तु वस्तुस्थितिः किम् अस्ति तत्र रमेशः न उक्तवान् अतः तत्र कार्यम् अहं कार्यं न कृतवान् अस्तु तत्र रमेशः न उक्तवान् अहं कार्यं न कृतवान् अतः किं वदामः इदानीं तत्र यदि रमेशः उक्तवान् स्यात् तर्हि अहं कार्यं कृतवान् स्यात् इति अवगच्छति खलु रघुवीरानन्दस्वामी तत्र सः न उक्तवान् अहं कार्यं न कृतवान् किन्तु परिस्थितिः का इति वक्तुं किं कुर्मः यदि सः उक्तवान् स्यात् तर्हि अहं कार्यं कृतवान् स्यात् एतदेव अस्मिन्नेव अर्थे इदानीम् एषः लकारः लृङ्लकारः किं भवति तत्र यदि भवान् यदि रमेशः अवदिश्यत् तर्हि अहं कार्यम् अकरिष्यम् इति रूपं भवति यदि रमेशः अवदिश्यत् तर्हि अहं कार्यम् अकरिष्यम् इति अत्र लृङ्लकारस्य तत्र किं तत्र यदि तर्हि तत्र क्रियाद्वयं भवति प्रथमा क्रिया द्वितीयाः क्रियायाः कारणं भवति तत्र लृङ्लकारस्य सूर्यकुमारी भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनि पुटसङ्ख्या अस्ति 108 109 तत्र लृङ्लकारः तत्र यदि तर्हि तादृशरूपमेव भवति तत्र क्रियाद्वयं भवति अपि प्रथमक्रिया द्वितीया क्रियायाः कारणं भवति कार्यकारणभावः तत्र भवति तत्र उदाहरणवाक्ये यदि रमेशः उक्तवान् स्यात् तर्हि अहं कार्यं कृतवान् स्यात् किन्तु सः न उक्तवान् अहं कार्यं न कृतवान्, वस्तुस्थितिः किमपि न अभवत्, सः अपि न उक्तवान् अहमपि कार्यं न कृतवान्, अतः तत्र कीदृशं वाक्यं भवति तत्र लृङ्लकारस्य उपयोगेन, यदि रमेशः अवदिष्यत्, सः न उक्तवान्, यदि रमेशः अवदिष्यत् तर्हि अहं कार्यम् अकरिष्यम् इति. अतः तत्र लृङ्लकारस्य प्रयोगः कुत्र भवति, यत्र यदि तर्हि इति तादृशं वक्तुम् इच्छामः, किन्तु यत्र कार्यं तत्र क्रिया न अभवत्, तत्र क्रियायाः सम्भावना, तत्र केवलं ऊहा एव, एतादृशं भवेत् किन्तु तद् नास्ति, तत्र क्रियायाः असम्भावना इति, तत्र एतद् न जातम्. अतः तस्मिन् एव सन्दर्भे लृङ्लकारस्य प्रयोगः भवति. अतः तत्र पुनः तत्र एकवारं तत्र अर्थस्य अवगमनार्थं तत्र पाठः यदस्ति तत्र तदपि पश्यामः, तदनन्तरं तत्र रूपस्य अभ्यासमपि कुर्मः, तदनन्तरं तत्र नूतनविषयः तत्र भवति, तत्र उपसर्गाः सन्ति चेत् तत्र किं किं करणीयम् इति. अस्तु, अतः अहं चिन्तयामि पुनः तत्र यदि तत्र वाक्यानि पश्यामः तत्र लाभः भवति इति. अतः तत्र पुटसङ्ख्या 108 मध्ये तत्र अन्तिमभागे तत्र वाक्यानि सन्ति, तत्र रघुपतिमहोदय भवानेव आरम्भं करोति वा महोदय?
महोदय, हेतु हेतुमद्भाव इति वदन्ति, तदपि अस्ति वा तत्र?
हा, तत्र नाम तत्र सः न उक्तवान् अतः अहं कार्यं न कृतवान्, तत्र कार्यकारणभावः अस्ति खलु, कारणं, हा कारणम् अस्ति, सः न उक्तवान् अतः फलं किम्, अहं कार्यं न कृतवान्, अतः तत्र सम्बन्धः अस्ति खलु. हेतु हेतुमत् इति तत्र तु तत् प्रायशः भिन्नम् अस्ति महोदय, तत्र हेतुः अपि हेतुमत् तत्र यस्मिन् हेतु अस्ति इति तत्र खलु, हेतुमत् नाम यस्मिन् तत्र कारणता अस्ति अथवा कारणम् अस्ति इति प्रायशः, किञ्चित् भिन्नम् इति मन्ये महोदय. हा, किन्तु तत्र कार्यकारणभावः अत्र अस्ति, सः न उक्तवान् अतः अहं न, रमेशः न उक्तवान् अहं कार्यं न कृतवान्, अतः तत् कीदृशं वदामः, यद् रमेशः यदि रमेशः अवदिष्यत् तर्हि अहं कार्यम् अकरिष्यम् अकरिष्यम्, किन्तु सः न उक्तवान् अहं कार्यमपि न कृतवान्. वस्तुस्थितिः भिन्ना, किन्तु तत्र यदि तर्हि इति रूपं वदामः, तत्र यदि सः उक्तवान् स्यात् तर्हि अहं कार्यं कृतवान् स्यात् इति. अस्तु, अतः तत्र प्रथमवाक्यं पठतु महोदय, तत्र अधोभागे.
अत्र हेतुभावः अस्ति, परन्तु तत्र क्रिया अनिष्क्रिया न अभवत्, तदेव तदपि अस्ति इति. अत्र
हा सत्यं, तत्र क्रिया न जाता, क्रिया न जाता, हा क्रियाद्वयमपि न जातं.
हेतुः अस्ति यदि वदति चेत् अहं करोमि इति, तत्र हेतुः अस्ति परन्तु क्रिया न जाता, अतः तद्
तादृश न जाता. हा हा, क्रिया
तदेव एडिशनल् एडिशनल्
सत्यं सत्यं महोदय. हा हा हा, अतः तत्र तत्र अतः तत्र स्यात् इति तत्र बिजिलिङ्ग रूपं स्वीकुर्मः, तत्र न इति स्थापनीयं भवति. अस्तु अस्तु महोदय, वदतु महोदय.
अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्. अर्जुनेन सह यदि कृष्णः न उक्तवान् स्यात् तर्हि सः युद्धं न कृतवान् स्यात् इति वा
भविष्यत्, तत्र अर्जुनेन सह न अभविष्यत्.
आमाम्,
इदानीम्
अर्जुनेन सह यदि कृष्णः नास्ति चेत् तत्र युद्धः अर्जुनः युद्धं न कृतवान् स्यात् इति खलु, तद्
हा सत्यं महोदय. हा तत्र सः आसीत् खलु, तत्र अर्जुनः अर्जुनेन सह कृष्णः आसीत्.
कृष्णः आसीत् अतः युद्धम् अभवत्.
हा युद्धम् अभवत् तत्र तत्र इदानीं तत्र हा तत्र अतः तत्र एतद् न तत्र क्रियाद्वयं यत् अत्र अस्ति किन्तु क्रियाद्वयमपि न जातं तत्र न अभविष्यत् न अभविष्यत् तदपि असत्यं न अकरिष्यत् तदपि असत्यं.
कृष्णः आसीत् युद्धः अर्जुनः
युद्धं कृतवान्. हा अतः तत्र तत्र इदानीं तत्र केवलम् अवगमनार्थं तत्र किं वदामः तत्र अभविष्यत् इति स्थाने तत्र विधिलिङ्गरूपं स्थापयितुं शक्नुमः. तत्र यदि श्रीकृष्णः तत्र न भवेत् तर्हि सः युद्धम् अर्जुनः सः अर्जुनः युद्धं न
कुर्यात् अथवा
अथवा अथवा अन्यदपि अन्यत् अपि स्थापितुं शक्नुमः. तत्र यदि न तत्र आसीत् तत्र हा तत्र भूतवान् इति तत्र हा तत्र तव तु किञ्चित् क्लिष्टः अस्ति खलु तत्र. किन्तु तदपि तत्र भूतवान् स्यात् तत्र यदि श्रीकृष्णः तद् अर्जुनेन सह न भूतवान् स्यात् तर्हि अर्जुनः युद्धं न कृतवान् स्यात् इति. अतः तत्र केवलम् अर्थवाक्यस्य अवगमनार्थम् अपि पुनस्मरणार्थं किन्तु अग्रे पश्यामः तत्र अभ्यासः अपि तत्र अस्य नूतन नूतनस्य लकारस्य अपि अभ्यासः अपेक्षितः.
नमस्कारः महोदय.
हा लक्ष्मी भगिनी नमस्कारः भगिनि. 108-109 भगिनि. अस्तु तर्हि हा अस्तु अग्रिमवाक्यमपि करोति वा महोदय.
आम् अर्जुनः यदि रणरङ्गात् पलायिष्यत तर्हि इतिहासः तम् अनिन्दिष्यत. अर्जुनः रणरङ्ग अनिन्दिष्यत् सम्यक् अनिन्दिष्यत् इति. अर्जुनः रणरङ्गात् न पलायितवान् इतिहासः इतिहासः तं न निन्दितवान्.
हा हा स्यात् यदि यदि अर्जुनः रणाङ्गणात् पलायितवान् स्यात् तर्हि इतिहासः तम् अर्जुनं निन्दितवान् स्यात्. समीचीनं महोदय. हा तदेव अस्ति. अतः तत्र पलायिष्यत इति अस्ति अपि तत्र अनिन्दिष्यत् इति अस्ति. इदानीं तत्र अभविष्यत् इति तत्र रूपाणि दत्तानि सन्ति महोदय तत्र. किन्तु तत्र अकरिष्यत् इति तत्र रूपाणि एकवारं वदति वा केवलम् अभ्यासार्थम्.
अकरिष्यत् खलु अकरिष्यत् अकरिष्यताम् अकरिष्यन् भवति अकरिष्यः अकरिष्यतम् अकरिष्यत अकरिष्यम् अकरिष्याव अकरिष्याम
इति तत्र. हा अपि तत्र वयम् उक्तवन्तः पूर्वं तत्र एतद् एषः लकारः तत्र मेलनं कृत्वा प्राप्तः एषः लकारः नाम तत्र लङ्लकारः अपि लृट् लकारः तयोः मेलनं कृत्वा एषः लकारः प्राप्तः. किन्तु तत्र कीदृशं मेलनम् इत्युक्ते तत्र आदौ अपि अन्ते तत्र लङ्लकाररूपं केवलं तत्र मध्ये लृट् लकारस्य रूपम् खलु महोदय.
आम् महोदय. आम् मध्ये मध्ये लिट् लकारः आदौ अन्ते लङ्लकार लक्षणमस्ति.
हा नाम तत्र भूधातोः तत्र अभवत् इति अस्ति. अतः तत्र तत्र अधोरेखः अस्ति खलु तत्र अ अपि इत् तत्र अधोरेखः अस्ति अधोरेखा अस्ति अपि तत्र श्य इति अधोरेखा तत्र अपि अस्ति, तत्र मेलनं कृत्वा तत्र अभविष्य पुनः भविष्यत्, अतः तत्र अतः आदौ अन्ते लङ्लकारः, मध्ये तु लृट्लकारः, अतः अभविष्यत्। अपि तत्र आत्मनेपदे धातूनां तत्र अवन्दिष्यत इति, तत्र यतोहि तत्र अवर्तत अवर्तेताम् इति एव अस्ति खलु, तत्र अवन्दत अवन्देताम् इति, तत्र अतः तत्र इत् स्थाने अन्ते तत् इति एव अस्ति, अतः भेदः। समीचीनं महोदय, अस्तु। अपि अतः अत्र तत्र परि पलायिष्यत तत्र आत्मनिपदि धातु, इति अपि तत्र अनिन्दिष्यत् इति, तत्तु परस्मैपदे, अतः तत्र निन्दति इति, तत्र अनिन्दिष्यत् इति। समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे सूर्यकुमारी भगिनी अग्रिमवाक्यं करोति वा? एतत् गतवर्गे अपि कृतवन्तः, किन्तु पुनस्मरणार्थं।
पाण्डवाः अज्ञातवासे वासांसि अविधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत्। पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन्
भविष्यत् अभविष्यताम् अभविष्यन् इति अस्ति,
बहुवचनं, परस्मैपदि बहुवचनं।
हा, यतोहि किमर्थं बहुवचनमस्ति?
पाण्डवाः
हा इति कर्तृपदं, समीचीनं।
तर्हि तेषाम् अभिज्ञानम् अभविष्यत्।
हा, इदानीं तत्र प्रथमतया वाक्यम् अवगच्छति वा भगिनि? तत्र केवलं तत्र एतत् स्वीकरोतु, पाण्डवाः यदि न केवलं तत्र पाण्डवाः यदि न पर्यवर्तयिष्यन् तर्हि तत्र तेषाम् अभिज्ञानम्
अभविष्यत्।
न तेषाम् अभिज्ञानम् अभविष्यत्, यदि न पर्यवर्तयिष्यन् तर्हि एतद् भवति, एतद् अभविष्यत्। किन्तु तत्र अर्थः अवगम्यते वा भवत्या? शब्दैः किञ्चित् वदतु, तत्र पाण्डवाः किं कृतवन्तः अज्ञातवासे? ते किं कृतवन्तः?
वासांसि
नाम किम्?
वासांसि
तत्र एतद् दृष्ट्वा मा वदतु, केवलं भवती कथां जानाति खलु, महाभारतं जानाति, अतः तत्र ते किं कृतवन्तः स्वशब्दैः वदतु।
अज्ञातवासे
ते किं कृतवन्तः? ते पाण्डवाः
अज्ञातवासे वासांसि अभिधानानि,
इतदस्ति भगिनि, किन्तु अवगमनार्थं स्वशब्दैः वदतु, तत्र किं वासांसि इति यदि न जानाति देशः मास्तु, किन्तु कथां जानाति, तत्र कथां स्मृत्वा वदतु, तत्र ते किं कृतवन्तः? अज्ञातवासं नाम किम्?
अज्ञातवासं नाम अन्यजनाः
न जानन्ति, ते पाण्डवाः इति न जानन्ति खलु, एतदेव समीचीनम्। अतः तदर्थं ते किं कृतवन्तः? तदर्थं ते वस्त्राणां परिवर्तनं कृतवन्तः खलु, समानवस्त्रं यदि भवेत् यदि समानानि वस्त्राणि सन्ति चेत् सर्वे जानन्ति अतः तत्र वस्त्राणां परिवर्तनम् आवश्यकम् आसीत् तदनन्तरं किं यदि कोऽपि तत्र अर्जुनः गच्छति अपि वदति नूतनवस्त्रं तस्य अस्ति किन्तु सः वदति अहम् अर्जुनः इति तत्र किं ते न जानन्ति वा न जानन्ति खलु अतः ते किं कृतवन्तः नामानि अपि
परिवर्तनं
हा कृतवन्तः तत्र नामा अतः तत्र किं जातं तत्र वासांसि नाम वस्त्राणि अभिधानानि नाम नामानि हा यदि ते परिवर्तयिष्यन् तत्र परिवर्तनं न इदानीं तत्र तवतु कृधातोः तवतु किमस्ति कृतवान् इति बहुवचने किमस्ति
कृतवन्तः
हा यदि अज्ञातवासे वासांसि अभिधानानि तत्र तेषां परिवर्तनं न कृतवन्तः तर्हि पाण्डवानाम् अभिज्ञानं तत्र हा भूतवान् तत्र भूतवत् स्यात् इति केवलं तत्र अवगमनार्थं किन्तु तत्र यदि तत्र परिवर्तनं न कृतवन्तः किं भवति तत्र सर्वे ज्ञातुं शक्नुवन्ति हा ज्ञातुं शक्नुवन्ति एते पाण्डवाः इति समीचीनं हा अतः तत्र अभविष्यत् इति तस्य रूपाणि तु तत्र एव अस्ति इदानीं तत्र पर्यवर्तयिष्यन् इति तत्र वर्तते इति धातु अस्ति हा वर्तते तत्र वर्तते इति आत्मनेपदि धातु वा परस्मै पदि धातु वा
आत्मनेपदि परि उपसर्ग अस्ति चेत्
न एकनिमिष हा तत्र सोपानेन गच्छामः वर्तते इति किम् अस्ति आत्मनेपदि धातु खलु अस्तु इदानीं तत्र वर्तते इति तत्र तस्य तत्र लङ्लकारः कः वर्तते अवर्तत समीचीनम् इदानीं तत्र लृट् लकारः किम् अस्ति वयं जानीमः तत्र मध्ये एव तत्र लट् लकारस्य रूपं स्वीकृत्य मध्ये एव इष्यति स्थापनीयं खलु अतः वर्तिष्यते इति इदानीं वर्तिष्यते इदानीं तत्र यदि लृङ्लकार इच्छामः लृङ्लकारः कर्तुम् इच्छामः तत् कर्तुं लृङ्लकारं कर्तुम् इच्छामः तत्र किं भवति मेलनमस्ति खलु आदौ अपि अन्ते किम् अस्ति तत्र लङ्लकाररूपम् एव अतः तत्र अवर्तत एव लङ्लकाररूपम् इति उक्तवती खलु अवर्तत किन्तु मध्ये इदानीं किं स्थापनीयम् इष् इति स्थापनीयम् अतः रूपं किं भवति अवर्तिष्यत इति समीचीनं वा अवर्तिष्यत तत्र पेज् 109 मध्ये रूपाणि दत्तानि सन्ति खलु अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त इति अस्ति खलु किन्तु अवर्तिष्यत इति अस्ति इदानीं तत्र अवर्तिष्येताम् अपि अवर्तिष्यन्त इति किन्तु अत्र पाण्डवानां तत्र पर्यवर्तयिष्यन् इति अस्ति तत्र परस्मैरूपम् अस्ति खलु न तु आत्मनेपदीरूपं खलु हा तत्र उपसर्गः कः अत्र वर्तते इति वर्तते इति धातु किन्तु उपसर्गः कः अत्र
परिवर्तनम् अभवत्
किन्तु उपसर्गः कः तत्र परिवर्तयिष्यन् इति तत्र वर्त् इति अस्ति किन्तु तत्र वर्त् इति तस्मात् प्राक् किम् अस्ति तत्र उपसर्गः कः परि हा परियोगः वर्तते इति हा किन्तु तत्र इदानीं किं हा किन्तु तत्र इदानीं तत्र परस्मैपदीरूपम् अस्ति यतोहि तत्र किम् अस्ति तत्र वर्तिष्यत इति अस्ति वा अथवा वर्तिष्यन् वर्तिष्यन् अस्ति वा अथवा अन्यत् किमपि अस्ति वा?
वर्तिष्यन्
न तत्र वर्तिष्यन् नास्ति. पुनः वदतु तत्र पार्य
पर्यवर्तिष्यन्.
न न एकवारं पुनः वदतु, पठतु भगिनि. पर्य वर्तयिष्यन् इति वर्तयिष्यन् यकारः अस्ति भगिनि तत्र, नाम तत्र णिच् अस्ति भगिनि, अतः तत्र वर्तते नास्ति, वर्तयते कारयति. यतोहि तत्र परिवर्तनं, तत्र तेषां परिवर्तनं न, किन्तु वस्त्राणां परिवर्तनम् अपि नाम तत्र नामानि, तत्र नामानि परिवर्तनं, तत्र नामानि सन्ति खलु, तेषां परिवर्तनम्, अतः तत्र ते कारितवन्तः इति उक्त्वा तत्र णिच् प्रेरणार्थे, हा अतः तत्र प्रेरणार्थे अस्ति इति कृत्वा तत्र किं भवति, तत्र साधारणतया तत्र आत्मनेपदी धातु अस्ति चेदपि तत्र परस्मैपदीरूपं भवति णिच् अस्ति चेत्. उपसर्गात् अपि तत्र कारणं भवितुम् अर्हति, किन्तु तत्र अत्र णिच् अस्ति अतः निश्चयेन तत्र परस्मैपदीरूपम् अस्ति. तत्र परि इति कारणतः अपि भवितुम् अर्हति भगिनि, न जानामि, किन्तु णिच् अस्ति चेत् निश्चयेन तत्र परस्मैपदीरूपम् अस्ति, अतः तत्र किं भवति, तत्र वर्तयिष्यन् पर्य वर्तयिष्यन् तत्र वर्तयिष् तत्र वर्तयति इति वर्तयति, अतः तत्र वर्तयिष्यत् अवर्तयिष्यत् इति अस्ति रूपं. वर्तयति इति परस्मैपदी धातु वर्तयति. इदानीं तत्र तस्य लृङ्गलकारः कः किं भवति, रूपं किं भवति, अवर्तयिष्यत् इति अस्ति खलु, अवर्तयिष्यत् अवर्तयिष्यत् इति तत्र उपसर्गः पुनः स्थापयामः परि इति परियोगः पर्यवर्तयिष्यत् इदानीं रूपं पर्यवर्तयिष्यत् पर्यवर्तयिष्यतां पर्यवर्तयिष्यन् इति इति जातं खलु इदानीं परियोगः अवर्तयिष्यत् परियोगः अवर्तयिष्यत् इदानीं बहुवचने परियोगः अवर्तयिष्यन् इति समीचीनं वा? अतः तत्र यकारः तत्र वर्तयिष्यन् इति अस्ति, तत् हा अभिज्ञानम् अभविष्यत्. हा समीचीनम्, अग्रे.
श्रीकृष्णः स्थिरमतिः इति न अवदिश्यत् तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्.
हा तत्र मतिः नाम किं, मतिः नाम किम् अस्ति, तत्र वयं जानीमः मतिः अस्मिन् वर्गे बहुवारं मतिः 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 इति वदामः, यतोहि तत्र मतिः स्त्रीलिङ्गपदम् अस्ति, हरिवत् रूपं भवति किन्तु स्त्रीलिङ्गे अस्ति, मतिः 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 इति बहुवारं वदामः, किन्तु मतिः नाम किं,
मतिः नाम किं,
अर्थः कः मतिः इत्युक्ते
स्थिरमतिः?
न केवलं मतिः नाम किं, मतिः इत्युक्ते किम् अस्ति,
मनसि
वदति वा, बुद्धिः बुद्धिः, मतिः नाम बुद्धिः. हा बुद्धिः, हा तत्र श्रीकृष्णः स्थिरमतिः इति न अवदिश्यत् तर्हि अर्जुनस्य मतिः स्थिरा न
अभविष्यत्.
स्थिरमतिः तत्र स्थिरमतिः इति स्थिरमतिः भवतु इति तत्र तादृशं प्रायशः श्रीकृष्णः अर्जुनं प्रति उक्तवान्, अतः अर्जुनस्य मतिः स्थिरा भवति. स्थिरा नाम किं, मतिः तत्र प्रतिक्षणं तत्र तस्य परिवर्तनं भवति एव. चञ्चलम् अस्ति खलु, चञ्चला अस्ति खलु मतिः, चञ्चला 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 मतिः नाम तत्र स्त्रीलिङ्गे अस्ति खलु, अतः
चञ्चला
तत्र यस्य मतिः स्थिरा अस्ति सः स्थिरमतिः. हा तत्र मतिः इति वा इति अपि तत्र प्राधान्यं नास्ति, स्थिरः अपि नास्ति तत्र, स्थिरः मतिः, स्थिरः मतिः अपि तत्र समासः भवितुम् अर्हति, किन्तु अत्र स्थिरमतिः इति तत्र पुल्लिङ्गपदम् अस्ति, न तु कीदृशः मतिः, तत्र स्थिरा मतिः इति वार्ता नास्ति, किन्तु यस्य मतिः स्थिरा अस्ति सः न तत्र स्थिरमतिः. तत्र श्रीकृष्णः किम् उक्तवान्, स्थिरमतिः भवतु इति प्रायशः कृष्णं प्रति उक्तवान्, अतः अर्जुनं प्रति उक्तवान्, अतः तत्र अर्जुनस्य मतिः स्थिरा अभवत्. किन्तु यदि सः तादृशं न कृतवान् तर्हि अर्जुनस्य मतिः स्थिरा न इति. इदानीं तत्र वदिष्यत् इति स्थाने उक्तवान् इति स्वीकरोतु, तत्र स्थिरा न भूतवती इति खलु स्त्रीलिङ्गे,
भूतवती.
इदानीं वाक्यं वदतु, यदि श्रीकृष्णः स्थिरमतिः भवतु, तत्र भवतु इति स्थापयामः,
स्थिरमतिः
भवतु इति न उक्तवान्
तर्हि
अर्जुनस्य
भूतवती
स्यात्. इदानीम् अवगच्छति खलु तत्र, अस्तु समीचीनं भगिनि. अस्तु तत्र अवदिष्यत् इति, इदानीं तत्र अस्तु अग्रे नरेश महोदय अग्रे.
महोदय, श्रीकृष्णः यदि अर्जुनस्य सारथिः न अभविष्यत् तर्हि जनाः तं पार्थसारथिः इति न सम्बोधयिष्यन्. श्रीकृष्णः यदि अर्जुनस्य सारथिः न अभूतवान् तर्हि अभूतवान् स्यात्.
न तदनन्तरं किम् उक्तवान् महोदय, सारथिः न
अभूतवान्?
किमर्थम् अभूतवान्?
अभागमनं भवति तवतु प्रत्यये,
केवलं तवतु खलु महोदय, तवतु तत्र भवति इति, भवति इति क्रियापदस्य तवतु किम् अस्ति?
अभवत्.
न तत् लङ् तत्र तत् साक्षात् लङ्लकारः अस्ति, किन्तु तत्र तत्र भवति इति स्थाने भूतवान् खलु,
भूतवान्
केवलं भूतवान्, अभवत् अभवत् इति एकम्, अथवा अभवत् स्थाने
भूतवान्,
सः अभवत् सा अभवत् किन्तु सः भूतवान् सा भूतवती इति खलु. अतः तत्र इदानीं वाक्यं वदतु महोदय, श्रीकृष्णः यदि
श्रीकृष्णः यदि अर्जुनस्य सारथिः न भूतवान् स्यात् जनाः तं पार्थसारथिः इति न
सम्बोधितवन्तः
स्यात्.
इदानीं तत्र समीचीनम्, इदानीं तत्र स्यात् इति स्थापितवान् समीचीनं, तत्र सूर्यकुमारी भगिन्याः वाक्ये अपि तत्र स्थापनीयम् आसीत्, किन्तु सर्वं समीचीनम्, अन्ते केवलं तत्र किञ्चित् परिवर्तनम् आवश्यकम् अस्ति महोदय. तत्र यदि श्रीकृष्णः अर्जुनस्य सारथिः न भूतवान् स्यात् तर्हि जनाः तं तत्र भूतवान् स्यात् इति भवान् उक्तवान् तत्र प्रथमभागे, समीचीनं. तत्र किमर्थं स्यात् इति स्वीकृतवान् भवान्? स्यात् इति साक्षात् क्रियापदम् अस्ति खलु तत्र.
आम् आम्,
भूतवान् इति तत्र क्रिया नास्ति, तत्र विशेषणम् अस्ति. भूतवान् नाम भूतवान् कः? श्रीकृष्णः भूतवान्. स्यात् इति एव तत्र अस् धातोः क्रियापदं खलु, साक्षात् क्रियापदम्. स्यात् इति किमर्थं? यतोहि कर्तृपदस्य वचनं किम् अस्ति?
एकवचनम्,
एकवचनं श्रीकृष्णः इति. श्रीकृष्णः स्यात्. किं स्यात्? श्रीकृष्णः, यदि अर्जुनस्य सारथिः न भूतवान् स्यात्. इदानीं तर्हि इदानीं कर्तृपदं किम् अस्ति?
जनाः, बहुवचनं.
जनाः तं कृष्णं पार्थसारथिः इति न सम्बोधितवन्तः.
स्युः,
स्युः, तावदेव. तत्र स्यात् इति तादृशं स्थापनीयं, विधिलिङ्गरूपं स्थापनीयम्, अस्धातोः विधिलिङ्गरूपं स्थापनीयं, किन्तु वचनं पुरुषम् अनुगुणं स्थापनीयं, तावदेव. समीचीनं महोदय. अस्तु, तत्र प्रश्नः अस्ति वा अस्मिन् विषये? तत्र अत्र अंशद्वयमस्ति. एकः प्रथम अंशः अस्ति तत्र अर्थः कः, अन्यः अंशः अस्ति तत्र रूपस्य अभ्यासः. अस्तु, अग्रिमवाक्यं महोदय.
अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं प्राप्स्यत् तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिष्यत्. अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं प्राप्तवान् स्यात् तर्हि श्रीकृष्णः विस्तरेण गीतां न उक्तवान् स्यात्.
इति समीचीनं. समीचीनं महोदय. इदानीं तत्र प्राप्स्यत् इति अस्ति, तत्र तत्र लङ्लकारे किम् अस्ति, लट्लकारे किम् अस्ति तत्र?
लट्लकारे प्राप्ति
तत्र तृप्तिं, तृप्तिं, सः तृप्तिं प्राप्तवान् इति उक्तवान्. तव तु जानाति, अतः तत्र लट्लकारं जानाति भवान्. प्राप्तवान् अस्ति, लट्लकाररूपं किम् अस्ति? प्राप्स्यत् इति प्राप्नोति. तत्र प्रयोगः आप्नोति, आप्नोति इति. इदानीं तत्र आप्नोति इति तत्र प्रयोगः आप्स्, तत्र आप्स्यत् इति, आप्स्यत् इति तत्र आप्स्यत्, आप्स्यति इति प्रायशः तत्र खलु, तत्र प्राप्स्यति इति प्रायशः तत्र लृट् लकारः आप्स्यति इति प्रायशः अस्ति, आप्स्यति, आप्स्यति इति अस्ति. तदनन्तरं तत्र किम् अस्ति? तत्र प्रयोगः, प्र पुनः तत्र स्थापयामः, तत्र आप्स्यत्, तत्र आप्स्यत् इति तत्र लृङ्लकारः आप्स्यत्. तदनन्तरं तत्र वयं जानीमः तत्र उपसर्गः अन्ते एव लकारस्य, तत्र उपसर्गरहितधातुं स्वीकृत्य सर्वं कार्यं कृत्वा लकारमपि तत्र लकारस्य निर्माणं कृत्वा अन्ते कार्यस्य अन्ते एव तत्र पुनः उपसर्गस्य स्थापनं भवति इति. अतः तत्र आप्स्यत् इति प्राप्तं, तदनन्तरं प्र इति उपसर्गः पुनः स्थापयामः, तत्र प्राप्स्यत् इति भवति. इदानीं तत्र तस्मिन् स्थाने तत्र लभते इति तृप्तिं लभते, तदपि समानार्थकः एव खलु,
लप्स्यत्
हा तत्र अलप्स्यत इति प्रायशः अस्ति खलु
अलप्स्यत् आम्
अलप्स्यत् इति अलप्स्यत् अलप्स्यत अलप्स्यत इति लङ्लकारः अलप्स्यत अपि लृट्लकारः अस्ति क्षम्यताम् अलभत अलभत इति लङ्लकाररूपम् अलभत इति लङ्लकाररूपं लृट्लकाररूपं लप्स्यते इति अन्ते ते इति अस्ति मध्ये लप्स् इति अस्ति इदानीं किन्तु तत्र लङ्लकाररूपम् अलभत इति अतः तत्र आदौ अ इति अस्ति अन्ते थ इति अस्ति मध्ये लप्स्य इति स्थापनीयम् अतः तत्र अलप्स्यत
अलप्स्यत
अलप्स्यत अलप्स्यत आत्मनिपदि धातु अतः अलप्स्यत यदि शीघ्रमेव तृप्तिम् अलप्स्यत तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिष्यत् समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी अग्रे लक्ष्मी भगिनि न श्रूयते भगिनि
श्रूयते वा महोदय
हा इदानीं श्रूयते भगिनि हा कौरवाः इति
कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्गीकरिष्यन् तर्हि पाण्डवाः
अङ्ग्यकरिष्यन्
तर्हि पाण्डवाः न अयोत्स्यन्त
अयोत्स्यन्त
कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावं
यदि यदि इति स्थापयतु यदि कौरवः तत्र प्रथमतया अर्थस्य तत्र वाक्यस्य अवगमनार्थं तत्र एकवारं वदतु तत्र तवतु इति उपयुज्य
यदि कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावं न अङ्गीकरिष्यन्
न न अङ्गी यदि ते अङ्गीकृतवन्तः अङ्ग्यकरिष्यत् तत्र करोति इति कृतवान् बहुवचने किम् अस्ति
अङ्गीकृतवन्तः तर्हि पाण्डवाः न अयोच्यन्त
तत्र तत्र तवतु इति तत्र युद्धम् अस्तु तत्र युद्धं न कृतवन्तः इति स्वीकुर्मः पाण्डवाः युद्धं न कृतवन्तः स्यात् तत्र स्यात् इति आवश्यकम् अत्रापि अहं स्यात् इति न उक्तवान् क्षम्यतां तत्र यदि कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्गीकृतवन्तः स्यात् तर्हि पाण्डवाः युद्धं न कृतवन्तः क्षम्यतां पुनः तत्र मम दोषः कौरवाः यदि कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्गीकृतवन्तः स्युः तर्हि पाण्डवाः युद्धं न कृतवन्तः स्युः इति इदानीं तत्र अङ्ग्यकरिष्यन् इति अस्ति तत्र उपसर्गः तत्र तत्र मूलधातुः किमस्ति तत्र क्रुधातुः खलु तत्र रूपं किमस्ति तत्र एकवारं वदतु तत्र क्रुधातोः तत्र लङ्लकाररूपं किमस्ति न न लङ्लकाररूपं करोति इति अकरोत् अकरोत् तत्र आदौ अकारः अस्ति अन्ते इत् इति अस्ति इदानीं तत्र लृट्लकारं किम् अस्ति लृट्लकारः कः अस्ति करिष्यति इति अस्ति इदानीं तत्र मेलनं कृत्वा इदानीं तत्र लृङ्लकारः रूपं किं भवति तस्य लकारस्य अकरिष्यत् हा अकरोत् करिष्यति मेलनं कृत्वा अकरिष्यत् अकरिष्यत् इदानीं तत्र अकरिष्यत् अकरिष्यतां बहुवचने
अकरिष्यन्
अकरिष्यन् हा इदानीं तत्र अकरिष्यन् अत्र आदौ किम् अस्ति अकारः अस्ति खलु तत्र हा तत्र अङ्गी अङ्गीकरोति खलु लट्लकारे किमस्ति अङ्गीकरोति अतः तत्र अङ्गी इति अस्ति तत्र अङ्गीकरोति तत्र अङ्गीकरोति तत्र प्रत्ययः पूर्वमपि उक्तवन्तः खलु तस्मिन् विषये अङ्गीकरोति तत्र प्रत्ययः कः तत्र च्वी प्रत्ययः शुक्लीकरोति अङ्गीकरोति स्वीकरोति तत्र ईकारः आगच्छति अतः तत्र अङ्गीकरोति अङ्गी इदानीम् अकरिष्यत् अङ्ग्यकरिष्यत् अङ्ग्यकरिष्यन् इति बहुवचने किं भगिनि हा यकारस्य आदेशः सत्यं भगिनि हा ईकारः अकारः स्थाने यकारः समीचीनं भगिनि हा अतः अङ्ग्यकरिष्यन् इति भवति समीचीनं हा अस्तु अग्रे
तर्हि पाण्डवाः न अयोज्यन्त पाण्डवाः न
तत्र अयोज्यन्त इति तत्र लट्लकाररूपं किम् अस्ति
आत्मनेपदी
योत्स्यन्त युध्यते हा समीचीनं युध्यते हा इदानीं तत्र युध्यते इति तत्र हा तत्र युध्यते युध्येते युध्यन्ते इति अस्ति समीचीनम् अपि तत्र लङ्लकारः किम् अस्ति अयुध्यत इति अस्ति समीचीनम् इदानीं तत्र लृट्लकारः योत्स्यते इति अस्ति
योत्स्यन्ते
हा इति अस्ति इदानीं तत्र मेलनं कृत्वा तत्र अयोत्स्यत इति इदानीं तत्र एकवारं तत्र प्रथमपुरुषे एकवारं रूपाणि वदतु भगिनि
अयोच्यत
हा तावदेव समीचीनं तत्र मध्ये द्विवचने एकारः आगच्छति हा तत्र सावधानं तावदेव अयोच्यत अयोच्येताम् अयोच्यन्त इति समीचीनं हा अस्तु समीचीनम् अग्रे
महाभारतयुद्धं न अभविष्यत् चेत् गीताप्रवेशः न अभविष्यत्
गीतोपदेशः हा गीतोपदेशः
गीतोपदेशः न अभविष्यत् महाभारतयुद्धं यदि महाभारतयुद्धं न भविष्यत्
तत्र न भविष्यत् न तत्र यदि न भूतवत् इति प्रायशः तत्र भूतवत् स्यात्
तर्हि गीतोपदेशः न
भूतवान् स्यात् अथवा तत्र साधारणतया यदि तत्र यदि गीता महाभारतयुद्धं न अभवत् इति तत्र हा किन्तु तत्र अभवत् इति साक्षात् क्रियपदं तत्र तदनन्तरं स्यात् इति न स्थापितुं शक्नुमः खलु अतः तत्र भूतवान् इति स्वीकुर्मः तावदेव अस्तु तत्र अभविष्यत् तत्र महाभारतयुद्धम् अभविष्यत् अभविष्यत् तदेव अस्ति अस्तु धन्यवादः भगिनि अस्तु अग्रे रघुवीरेन्द्रस्वामी न न अभ न अभवत् इति नास्ति यतोहि तत्र एतद् भूतकाले एव अस्ति खलु भगिनि हा हा नाम तत्र वर्तमानकालस्य नास्ति तत्र किं भूतकाले यदि तत्र भूतकाले एतत् सर्वं जातं खलु इदानीं यत् यस्य तत्र विषय यः विषयः अस्ति सः विषयः तत्र वाक्यस्य विषयः वर्तमानविषयः नास्ति खलु, भूतकालविषयः अस्ति खलु,
महाभारतयुद्धं
अतः तत्र सर्वं भूतकाले एव स्थापनीयमस्ति अपि. किन्तु प्रश्नः तु तत्र अन्यः प्रश्नः अपि तत्र चिन्तनीयः अस्ति, नाम किमर्थं तत्र मेलनं भवति इति. कोऽपि जानाति वा तत्र किमर्थं मेलनं कृत्वा वदामः? लङ्लकारः अपि नास्ति, लृट्लकारः अपि नास्ति, किन्तु लृङ्लकारः इति किमर्थं तत्र स्वीकुर्मः? तत्र किमर्थं मेलनं कृत्वा वदामः?
भवान् अवदत् खलु महोदय, कार्यकारणभावम् अस्ति.
हा, कार्यकारणभावम् अस्ति, अतः एव समीचीनं. तत्र एकं भूतकाले अस्ति, तदनन्तरं तत्र तस्मात् अन्यत् कार्यं जातम् इति, अतः एव तत्र मेलनमस्ति. समीचीनं, हा समीचीनं, तदेव अस्ति. अतः एव तत्र भूतकालरूपमपि समीचीनं नास्ति, भविष्यत्कालरूपमपि नास्ति, मेलनमेव साक्षात् समीचीनम् अस्ति. अपि एतत् न जातम् इति तत्र सूचयितुं नूतनलकारः तत्र केवलं तत्र वाक्ये एव तत्र अस्ति, किन्तु एतत् न जातम् इति. अस्तु अस्तु, अग्रे रघुवीरन्द्रस्वामी.
धर्मराजः द्यूतेन न अक्रीडिष्यत् चेत् पाण्डवाः वनं न अगमिष्यन्. यदि धर्मराजः द्यूतेन न क्रीडितवान् तर्हि न क्रीडितवान् स्यात्, तर्हि पाण्डवाः वनं न गतवन्तः
स्यात्. स्युः गतवन्तः स्युः समीचीनं. हा, इदानीं तत्र क्रीडिष्यत् अक्रीडिष्यत् इति अस्ति, तत्र एकवारं वदतु महोदय, तत्र अक्रीडिष्यत् इति तत्र रूपं कथं प्राप्नुमः? तत्र क्रीडति इति लट्लकारे,
लट्लकारे क्रीडति इति अस्ति, लङ्लकारे अक्रीडत् इति अस्ति, क्रीडिष्यति इति लुट्लकारे अस्ति, श्य इति नीत्वा लुट्लकारे, अ त इति लङ्लकारे नीत्वा अक्रीडिष्यत् इति भवति.
हा, अक्रीडत् अक्रीडत् इति खलु, तत्र लङ्लकाररूपं किम्? अक्रीडत्
अक्रीडिष्यत्
केवलं लङ्लकारः अक्रीडत् लङ्लकारः अक्रीडत् लृङ्ला लृङ्ला केवलं लङ्लकारः
अक्रीडत्
अक्रीडत् क्रीडिष्यति. इदानीं मेलनं कृत्वा
अक्रीडिष्यत्.
समीचीनं महोदय, हा समीचीनम्. इदानीं तद् तादृशमेव तत्र गच्छति इति तत्र गम् धातोः अपि रूपं
गम्लृ इति गमत् गच्छति इति भवति महोदय.
हा गच्छति, इदानीं तत्र गच्छति इति लङ्लकाररूपं किम् अस्ति?
अगच्छत् इति
अगच्छत् इति. हा, इदानीं तत्र
गमिष्यति,
हा लृट्लकारः गमिष्यति, इदानीं मेलनं कृत्वा
अगमिष्यत्
आगमिष्यत्. समीचीनं. हा, इदानीम् एकवारं तत्र वदतु महोदय, तत्र अभ्यासम् इदानीं भवतु, अभ्यासः भवतु तत्र. सः सः इति उपयुज्य सः अगमिष्यत्
सः अगमिष्यत् तौ अगमिष्यतां ते अगमिष्यन् त्वम् अगमिष्यः यूयं युवाम् अगमिष्यतम् यूयम् अगमिष्यत अहम् अगमिष्यम् आवाम् अगमिष्याव वयम् अगमिष्याम.
हा इति समीचीनं महोदय. अस्तु समीचीनं. तत्र अपि तत्र अन्यत् तत्र लभते इति, तत्र लभते इति तत्र आत्मनेपदे धातुः अस्ति महोदय, तत्र लभते इति तत्र अथवा तत्र एतत् कुर्मः तत्र, हा वर्तते इति एव स्वीकुर्मः, तत्र वर्तते इति आत्मनेपदे धातुः, तत्र लृङ्लकारः लृङ्लकारस्य रूपं किं भवति महोदय?
लङ्लकाररूपं
लङ्लकाररूपं किं भवति केवलं लङ्लकाररूपम् अवर्त वर्तते इति धातु वर्तते इति लट्लकारः लङ्लकारः किम् अस्ति सोपानेन गच्छामः लङ्लकारः तदनन्तरं लृट्लकारः तदनन्तरं मेलनं कुर्मः अतः लङ्लकारः किं भवति
आत्मनेपदी इति वा महोदय
आत्मनेपदी धातु सत्यं महोदय
आत्मनेपदी तु
अवर्तत अवर्तत अवर्तेत अवर्तेताम् अवर्तन्त इति समीचीनम् अतः तत्र अवर्तत इति इदानीं तत्र लृट् लकारः वर्तते वर्तिष्यते केवलं वर्तिष्यते इति इदानीं मेलनं कृत्वा
अवर्तिष्यत
अवर्तिष्यत इति समीचीनं तत्र तत्र अधोरेखा अस्ति खलु तत्र अभवत् इति तत्र अकारस्य अधोभागे रेखा अधोभागे रेखा अपि तत्र श्य इति तत्र अधोभागे रेखा अतः तत्र अवर्तिष्यत इति रूपम् इदानीं तत्र एकवारं केवलम् अभ्यासार्थं महोदय तत्र अवर्तिष्यत इति तत्र नवरूपाणि वदति वा तत्र
आं महोदय अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त अवर्तिष्यथाः अवर्तिष्येथाम् अवर्तिष्यध्वम् अवर्तिष्ये अवर्तिष्यावहे अवर्तिष्यामहे
महि महि अवर्तिष्यावहि
अवर्तिष्यावहि अवर्तिष्यामहि
इति समीचीनं महोदय हा अस्तु अत्र यथा वयम् उक्तवन्तः तत्र यद्यपि तत्र सः इति उपयुज्य अभ्यासं कृतवन्तः किन्तु यत्र लृङ्लकारः भवति तत्र सर्वदा यदि तर्हि तादृशवाक्ये एव भवति तत्र क्रियापदद्वयं भवति अपि द्वयोः क्रियापदयोः लकारः लृङ्लकारे लृङ्लकारः भवतु नो चेत् तत्र एषः तत्र सः प्रयोगः सम्यक् नास्ति तत्र यदि तर्हि एव भवति अपि तत्र समानं तत्र लृङ्लकारः प्रथमभागे अपि लृङ्लकारः द्वितीयभागे अपि लृङ्लकारः इति नियमः अतः लृङ्लकारः यदि तत्र तस्य प्रयोगः भवति द्विवारं करणीयमस्ति तत्र तस्य करणीयः तत्र प्रयोगः द्विवारं करणीयः अथवा तत्र विकल्पः अन्यः विकल्पः किं चिन्तितम् अस्माभिः तत्र लृङ्लकारस्थाने किं कुर्मः तत्र क्तवतु प्रत्ययं स्वीकृत्य क्तवतु रूपम् अपि कृत्वा तत्र क्रियापदद्वयमस्ति द्वयोः अपि क्रियापदयोः क्तवतु रूपं स्वीकृत्य तदनन्तरम् अस् धातोः विधिलिङ्गरूपं स्थापनीयं तत्र कृतवान् स्यात् कृतवन्तः स्युः पठितवान् स्यात् पठितवन्तः स्युः पठितवती स्यात् पठितवत्यः स्युः इति तावत् अपि वक्तुं शक्नुमः तत्र परिवर्तनं न भवति समानार्थकवाक्यं प्राप्नुमः अस्तु अपि तत्र गतवर्गे तत्र असन्नह्यत इति एकं पदं तत्र अस्माभिः पठितं गतवर्गे तत्र सम्भाषणमस्ति सम्भाषणे मध्ये तत्र मीनाक्षी वदति तत्र अधो भागे तत्र पञ्चमवाक्य परिणामतः नष्टमोहः अर्जुनः युद्धाः असन्नह्यत इति तत्र अहं पृष्टवान् अपि तत्र मया किम् उत्तरं प्राप्तं चेत् तत्र प्रायशः तत्र दोषः अस्ति तत्र मुद्रणदोषः वा तत्र किमपि अस्ति किन्तु तत्तु साधु नास्ति अतः तत्र तत्र सन्नह्यते इति तत्र लट्लकाररूपम् अस्ति तत्र सन्नह्यते इति रूपम् अस्ति तत्र नह्यते इति अपि संयोगः नह्यते सन्नह्यते इति अस्ति सिद्धः तत्र सः सिद्धः इति अर्थे इदानीं तत्र किं भवति तत्र रूपं असन्नह्य तत्र अकारः तत्र किमर्थं स्थापितम् इति नास्ति, किन्तु तत्र समन्नह्यत इति प्रायशः रूपं तत्र स्थापनीयमस्ति. अतः तत्र समन्नह्यत इति स्थापयन्तु. तत्र असन्नह्यत इति दोषं दोषयुक्तं पदं, किन्तु समन्नह्यत इति समीचीनम् अस्ति. अस्तु, तत्र पेज् 108 मध्ये महोदय, तत्र मीनाक्षी वदति तत्र अधोभागे तत् साधु नास्ति महोदय. तत्र संयोगः लट्लकारे सन्नह्यते इति अस्ति, तत्र संयोगः नह्यते इति. इदानीं तत्र सं तदनन्तरम् अनह्यत इति एव भवति खलु, तत्र लकारं कृत्वा एव पुनः उपसर्गं स्थापयामः. अतः तत्र संयोगः नह्यत तद् अभवति, तत्र समन्नह्यत इति
समन्नह्यता
इति इदानीं तत्र लृङ् लकार न कुर्मः, केवलं तत्र एतत् केवलं तत्र लङ्लकारः एव अस्ति, केवलं लङ्लकारः. अतः एव तत्र पुनः लङ्लकारे किमर्थं यत्र उपसर्गः अस्ति किमर्थम् अकारः आदौ अस्ति इति प्रश्नः. अनह्यत तदनन्तरं सम् इति उपसर्गं स्थापयामः, तत्र समन्नह्यत इति प्राप्तम्. अतः तत्र केवलं लङ्लकारः, अत्र स्थूलक्षरम् अपि तत्र न दत्तं.
स्थूलक्षरम्
कथं भवेत्, किन्तु विशेषरूपं भवति अथवा अन्य कोऽपि नियमः भवेत्, किन्तु मया पृष्टम् उत्तरं प्राप्तं, तत्र दोषयुक्तमेव अस्ति एतत् पदम्, अतः क्लेशः मास्तु. अस्तु तर्हि इदानीं तत्र
पण्डिताः अपि दोषं कुर्वन्ति.
सत्यं
महोदय,
न्यूनतया कुर्वन्ति
न्यूनतया.
सत्यं
महोदय, असन्यत
तत्र नह्यते इति धातु भगिनि, नह् धातु, नह् धातुः, नह्यते नह्यते इति अस्ति रूपम्.
अर्धकः नह्यते,
नह्यते तत्र बैण्ड् इति तत्र गृह्णाति गृह्णाति इति, किन्तु सन्नह्यते इत्युक्ते तत्र सिद्धः इति अर्थे, युद्धार्थं युद्धार्थं सः सिद्धः इति अर्थः तत्र. तत्र संयोगः संयोगः नह्यते इति सन्नह्यते. न तत्र तत्पुरुषः किमपि नास्ति भगिनि, क्रियापदमस्ति एतद् असन्नह्यत इति, क्रियापदमस्ति अत्र भगिनि. अतः तत्र असन्नह्यत इति तत्र अकारः आदौ तत्र न भवेत्, किन्तु मध्ये एव, यतोहि तत्र उपसर्ग अनन्तरमेव तत्र लकारस्य लकारं स्थापनीयमस्ति. अतः तत्र संयोगः अनह्यत तद्भवति, तत्र समन्नह्यत इति. अस्तु समीचीनम्. अस्तु अग्रे तत्र इदानीं नरेश महोदय अग्रे पठति वा तत्र अग्रिम. इदानीं तत्र किम् अस्ति तत्र, एकवारं तत्र किञ्चित् अभ्यासं कुर्मः, तत्र अग्रे किं भवति तत्र उपसर्गसहितधातूनां तत्र वाक्यानि सन्ति, किन्तु एकवारं तत्र केवलं तत्र आ, अभ्यासार्थं तत्र एतत् कुर्मः तत्र एकनिमिष तत्र अहं केचन तत्र हा अस्तु अस्तु तत्र हा नरेश महोदय तत्र गच्छति इति उक्तवन्तः तत्र वदति इति तत्र हा वदति इति तत्र रूपम् एकवारं करोतु महोदय तत्र वदति इति वद् धातुः वदति इति क्रियापदं तत्र लृङ्लकाररूपं कथं भवति इति एकवारं करोतु
लृङ्लकार
सोपानेन गच्छतु वदति इति लट्लकारः
लट्लकारः लङ्लकारः अवदत्
अवदत्
लृट्लकार वदिष्यति लृङ्लकारः अवदिश्यत्
अवदिश्यत् समीचीनं महोदय अवदिश्यत् समीचीनं हा अस्तु इदानीं तत्र रघुपति महोदय इदानीं तत्र दिशति इति स्वीकरोतु महोदय तत्र दिशति दिश् धातुः तत्र उपदिशति इति आसीत् तत्र किन्तु रघुपति महोदय तत्र दिशति इति लट्लकारः
क्षम्यतां महोदय दिशति दिशति इति अस्ति दिशति दिशति दिश्य दिश्यति तत्र दिश्यति वा सोरि
अतः तत्र अदिशत् अदिशत् इति
प्रायशः
लङ्लकारः अदिशत् इति हा अपि तत्र उपादिश्यत्
देक्ष्यत् इति भवेत्
देक्ष्यति इति देक्ष्यति इति देक्ष्यति इति लृट्लकारः देक्ष्यति हा देक्ष्यति इति लृट्लकाररूपम् इदानीं तत्र मेलनं कृत्वा अदेक्ष्यति तत्र षकारः अस्ति चेत् तत्र लृट्लकारे तत्र हा तत्र तत्र किं
षकारः भवति षकारः भवति अनन्तरं ककारः भवति तत्र देक्ष्यति इति भवति अत्र दिश् देश्
देक्षति इति भवति हा अतः तत्र षकारः अस्ति चेत् क्षकार अपेक्षितमस्ति अस्माभिः हा अतः तत्र हा अतः इदानीं तत्र उपदिशति इति अस्ति चेत् उपादेक्ष्यत्
उपादेक्ष्यत्
इति तदेव पूर्वस्मिन् पुटे आसीत् खलु हा उपादेक्ष्यत् समीचीनं महोदय अस्तु अग्रे तत्र लक्ष्मी भगिनी इदानीं तत्र अन्यत् ददामि तत्र लिखति इति तत्र
लिखति लट्लकाररूपं श्रूयते वा महोदय
लिखति इति लट्लकाररूपं हा लङ्लकाररूपं
लङ्लकाररूपम्
अलिखत् इदानीं तत्र लृट्लकारः किं भवति
लिखति
भविष्यत्काले किम् अस्ति
लेखिष्यति
हा समीचीनं लेखिष्यति इति अतः तत्र अलिखत् अपि लेखिष्यति मेलनं तत्र आदौ अन्ते अलेखिष्यत् अलेखिष्यत् इति समीचीनं भगिनि हा अस्तु इदानीं सूर्यकुमारी भगिनी तत्र इदानीं तत्र हसति इति स्वीकरोतु हा
हसति हसति
लङ्लकाररूपं किम् अस्ति सोपानेन गच्छामः प्रथमसोपानं तत्र लङ्लकारः हसति किं भवति
अहसत्
अहसत् समीचीनम् इदानीं तत्र लृट्लकाररूपं किं भवति हसिष्यति
हसिष्यति
सकारः तदनन्तरं षकारः हसिष्यति हसिष्यति समीचीनं किञ्चित् क्लिष्टमस्ति किन्तु हसिष्यति इदानीं तत्र मेलनं कृत्वा आदौ लट् लङ्लकारः अन्ते अपि लङ्लकारः मध्ये लृट्लकारः अतः
अहसिष्यत
अहसिष्यत् इति
अहसिष्यत्
अहसिष्यत् इति समीचीनं वा? अहसिष्यत् समीचीनम्. अस्तु अग्रे तत्र रघुवीरनन्दस्वामी भवान् कृतवान् खलु, अतः पुनः न पृच्छामि. अस्तु भवान् अपि कृतवान्. अस्तु इदानीं तत्र सर्वे जानन्ति तत्र सोपानद्वयम् अस्ति, तत्र लङ्लकारं लङ्लकारस्य सोपानं, तदनन्तरं लृट्लकारस्य सोपानं, तदनन्तरं लृङ्लकारस्य साक्षात् रूपं कर्तुं शक्नुमः. अस्तु इदानीम् एतद् किमर्थम् इत्युक्ते अग्रिमे पुटे तत्र उपसर्गः अपि सन्ति, तत्र क्लेशः मास्तु इति तावदेव. अस्तु इदानीं तत्र रघुपतिमहोदय तत्र अग्रिमे पुटे तत्र प्रथम वाक्यं पठति वा महोदय?
अवधानपूर्वकं तदेव खलु महोदय?
सत्यं महोदय.
विजय अवधानपूर्वकं पठत. विजयः यदि मार्गनियमं पर्यपालयिष्यत् तर्हि दुर्घटना न अभविष्यत्. अत्र पर्यपालयिष्यत् इति भवेत् पर्यपालयिष्यत् इति मतः अस्ति.
तत्र पुनः महोदय तत्र पाल तत्र किम् अस्ति? तत्र परिपालयिष्यत् इति अस्ति.
पालयिष्यत् पालयिष्यत् इति अस्ति. पालयिष्यत् सोरि पालयति खलु अपालयिष्यत् इति भवेत् खलु?
पालयति पालयति इति
पालयति अपालयत्
अपालयत्
पालयिष्यति इति लट्लकारूपम् अस्ति, तर्हि अपालयिष्यत् इति भवति. पर्युपसर्गे एण् सन्धि भवति पर्यपालयिष्यत्
पर्यपालयिष्यत् अतः तत्र पालयति अपालयत् पालयिष्यति अपालयिष्यत् इदानीं परि इति स्थापयित्वा पर्यपालयिष्यत् इति. यदि तत्र विजयः इदानीं तत्र परिपालयिष्यत् तत्र किं तत्र तव तु स्थापितुं शक्नुमः वा? तत्र
पालितवान् स्यात् यदि विजयः यदि मार्गनियमं परिपालितवान् स्यात् तर्हि दुर्घटना न भूत दुर्घटना न भूत भूतवती स्यात्.
दुर्घटना न भूतवती स्यात् समीचीनं महोदय. अतः तत्र वयं जानीमः तत्र एतत् न अभवत् नाम तत्र सः मार्गनियमं न पालितवान् इति वयं जानीमः. न पालितवान् इति जानीमः वाक्यस्य पठनेन एतत् अवगमनं भवति तत्र सः न परिपालितवान् अतः एव एतद् वाक्यमस्ति. अतः तत्र पर्यपालयिष्यत् इति यत्र अस्ति तत्र सा क्रिया न अभवत्. यत् वाक्ये अस्ति तद् न अभवत्. अन्य तत्र क्रियायाः अथवा घटना यद् अस्ति घटनायाः असम्भावना इति तत्र एतद् अस्तु समीचीनम्. अस्तु अग्रे नरेश महोदय द्वितीयवाक्यम्.
आं महोदय. हनुमान् सञ्जीवनीं न आनेष्यत् चेत् रामलक्ष्मणौ संज्ञां न प्राप्स्यताम्.
इदानीं तत्र आनेष्यत् इति अस्ति तत्र एकवारं वदतु महोदय तत्र एकवारं तत्र तवतु उपयुज्य वदतु अवगमनार्थं. यदि हनुमान्
सञ्जीवनीं यदि न आनीतवान् स्यात् चेत्
तर्हि चेत् इति त्यजतां तत्र यदि तर्हि नो अथवा चेत् इदानीं चेत् मास्तु. यदि हनुमान् सञ्जीवनीं न आनीतवान् स्यात् तर्हि
रामलक्ष्मणौ संज्ञां न प्राप्तवान् स्यात् प्राप्त
स्याताम् हा द्विवचने समीचीनं हा प्राप्तवन्तौ स्याताम् इति समीचीनं हा इदानीं तत्र अनेष्यत् इति रूपं दृष्ट्वा तत्र सोपानानि कानि इति वदतु तत्र नयति इति खलु
लट्लकारे आनयति
लङ्लकारे न तत्र आनयति अस्तु आनयति आनयति इति लट्लकारे आनयति तत्र किन्तु तत्र अ इति उपसर्गः अस्ति खलु अतः तत्र आ इति त्यजामः नयति इति स्वीकुर्मः
नयत्
अनयत् प्रायशः तत्र अनयत्
अनयत् भविष्यत् लट्लकारे
नेष्यति नेष्यति हा नेष्यति इदानीम् अनयत् नेष्यति तत्र किं भवति मेलनं अनेष्यत् अनेष्यत् इति भवति इदानीम् अनेष्यत् तस्मात् प्राक् किं स्थापयामः उपसर्गः उपसर्ग पुनः स्थापयामः तत्र किं भवति अकारः अकारः तत्र सवर्णदीर्घसन्धि इति आकारः इति भवति अतः तत्र आनेष्यत् इति रूपम् आनेष्यत् इति रूपं सिद्धम् अस्तु अतत्र यदि हनुमान् सञ्जीवनीं न आनेष्यत् तर्हि रामलक्ष्मण संज्ञां न प्राप्स्यताम् प्राप्स्यताम् इति द्विवचने समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी
मिहिरः वैद्यस्य सूचनाम् अवागमिष्यत् चेत् शीघ्रं स्वस्थः अभविष्यत्
वाक्यस्य तत्र वाक्यं किं वदति इति जानाति खलु भगिनि बुद्धं खलु मिहिरः इति नाम खलु कस्य कश्चन कश्चन अस्ति तस्य नाम मिहिरः
अस्ति वैद्यस्य सूचनां
सूचनां सूचना स्त्रीलिङ्गे अस्ति अवागमिष्यत् इति अस्ति अत्र तत्र अवागमिष्यत् इति अस्ति अतः तत्र गच्छति इति धातु वयं कृतवन्तः तत्र गच्छति इति धातु घं धातु स्वीकृत्य सोपानानि वदतु सोपानानि खलु इति वदतु
लङ्लकार अगच्छत् लृट्लकार गमिष्यति लृण्लकार
अगमिष्यत् समीचीनं हा उत्तमम् इदानीम् अगमिष्यत् इति अस्ति किन्तु अत्र अगमिष्यत् इति नास्ति अवागमिष्यत् इति अस्ति अतः तत्र अव इति अस्ति अतः तत्र लट्लकारे रूपं किम्
अवगच्छति
अवगच्छति हा समीचीनम् अवगच्छति इति अस्ति इदानीं तत्र समीचीनम् अवगच्छति इति क्रियापदस्य तत्र लृङ्लकाररूपम् अत्र अस्ति समीचीनम् इदानीं तत्र क्तवतु अवगच्छति इति पदस्य क्तवतु रूपं किम् अस्ति अवगतवान् हा इदानीं तद् उपयुज्य वदतु मिहिरः यदि मिहिरः
मिहिरः
यदि मिहिरः
सूचनां
वैद्यस्य सूचनां
न अवगतवान् चेत्
इति यदि तर्हि अस्ति चेत् मास्तु यदि मिहिरः वैद्यस्य सूचनाम् अवगतवान् स्यात्
तर्हि शीघ्रं न
शीघ्रं न इति मास्तु, शीघ्रं स्वस्थः भूतवान् स्यात्,
स्यात्.
हा, पुनः एकवारं वदतु, यदि उपयुज्य सम्पूर्णवाक्यं वदतु.
यदि महिरः
मिहिरः मिहिरः मिहिरः
मिहिरः वैद्यस्य सूचनां अवगतवान्
न इति नास्ति, अवगतवान्. यदि सः न अवगत अवगतवान् तत्र किं शीघ्रं तत्र कथं भवेत्? हा, अतः
यदि अवगतवान् चेत् अवगतवान्
स्यात्
स्यात् तर्हि शीघ्रं स्वस्थः भूतवान्
भूतवान् स्यात्. हा, समीचीनं. हा, अस्तु, समीचीनं भगिनि. अस्तु, इदानीं रघुवीरन् स्वामी अग्रिमम्.
अहं तत्र उपावेक्ष्यं चेत् घृतकं मिलनम् अभविष्यत्.
मलिनं मलिनं मलिनम् अभविष्यत्.
ओ, अहं तत्र उपावेक्ष्यं चेत् युतकं मलिनम् अभविष्यत्.
हा, इदानीं तत्र य इति अस्ति. इदानीम् उपावेक्ष्यम् इति तत्र लृङ्लकारः, लट्लकाररूपं किम् अस्ति इति जानाति वा महोदय?
उपविशति.
हा, बहु समीचीनम्. उपदिशति, उपादेक्ष्यत् इति, इदानीं तत्र उपावेक्ष्यत्, उपविशति. समीचीनं महोदय. इदानीं तत्र उपविशति इति तत्र सोपानेन गच्छतु महोदय. तत्र विश् धातु
एकनिमिषं, विश् धातु धातु अस्ति, लट्लकाररूपं.
इदानीम् उपसर्गं त्यजामः, केवलं विश् धातुः. समीचीनं, विशति
विशति अविशत्
अविशत्. समीचीनं. हा,
वशिष्यति.
न न, तत्र इदानीं तत्र एतद् दृष्ट्वा एव तत्र वेक्ष्यति. हा, वेक्ष्यति. हा, समीचीनं, वेक्ष्यति. इदानीं मेलनं कृत्वा अवेक्ष्यत् अवेक्ष्यत्
अवेक्ष्यत्.
हा, सः अवेक्ष्यत् किन्तु अहम् अवेक्ष्यम्
खलु, अवेक्ष्यम्.
हा, इदानीं तत्र इदानीम् उपसर्ग पुनः स्थापयामः, उपसर्गं स्थापयामः. उपयोगः,
उपयोगः अवेक्ष्यम्.
हा,
उपावेक्ष्यम्.
हा, मध्ये तत्र दीर्घ अकारः, उपावेक्ष्यम् इति भवति. हा, अतः तत्र अहं तत्र उपावेक्ष्यं चेत् युतकं मलिनम् अभविष्यत्. किन्तु तत्र अहं तत्र न उपविशामि. अतः यतोहि तत्र मलिनं भवति युतकम्, अतः तत्र तद् न करोमि अथवा न कृतवान् इदानीं. हा, अतः तत्र इदानीं तत्र तव तु उपयुज्य वदतु तत्र. यदि अहं,
आम्, यदि अहं तत्र उषितवान् स्यात्
तत्र उपविष्टवान् इति प्रायः अस्ति महोदय.
उषितवान् इति वस् धातो वसति इत्यस्य
अत्र
उपविष्टवान्
उपविष्टवान्
उषितवान् नास्ति वा महोदय?
उषितवान् नास्ति महोदय,
वस् धातोः उषितवान्
वसति इत्यस्य तत्र विश् विशति इति अस्ति महोदय.
अस्तु, ओ ओ, अस्तु अस्तु. आं महोदय, यदि अहं तत्र उपाविष्टवान् स्यात् तर्हि मम युतकं.
किन्तु तत्र वदतु महोदय,
भूतवान्.
हा, किन्तु, हा, भूतवान् तत्र मलिनं भूतवत्. हा, युतकं मलिनं भूतवत् स्यात्.
युतकं खलु, भूतवत्.
हा, किन्तु समीचीनमेव तत्र, किन्तु तत्र भूतवत् स्यात् इति तत्र स्यात् किमर्थं नाम तत्र स्यात् क्रियापदम् अस्ति, अपि तत्र युतकम् इति एकवचने अस्ति, अतः तत्र स्यात् खलु. किन्तु तत्र प्रथमभागे तु तत्र कर्तृपदमस्ति अहम्, अतः तत्र अहं स्यात् इति न भवति, किन्तु स्याम् इति भवति.
अहं तत्र
उपविष्टवान्
उप, उपाविष्टवान् अस्ति
उपविष्टवान् केवलम् उपविष्टवान्
उपविष्टवान् स्याम् तर्हि युतकं मलिनं भूतवत् स्यात्
हा इति तावदेव तत्र क्रियापदं तत्र केवलं पुरुषं इति एव तावदेव महोदय अस्तु अतः तत्र उपविष्टवान् उपविशति उपावेक्ष्यम् इति तत्र लृङ्लकाररूपं समीचीनम् अस्तु धन्यवादः महोदय अस्तु अग्रे लक्ष्मी भगिनी
अस्तु महोदय भीमः यदि दुर्योधनं वक्षसि एव प्राहरिष्यत् तर्हि पराजेष्यत भीमः दुर्योधनं वक्षसि एव प्राहरिष्यत् प्रहरति इति लट्लकाररूपं
समीचीनं प्राहरत् इति प्राहरत् इति लङ्लकाररूपं अपि प्रहरिष्यति इति तत्र इदानीं तत्र प्र इति त्यजामः तत्र हरिष्यति इति
हरिष्यति
इति लृट्लकाररूपं
हरिष्यति
अतः तत्र अहरिष्यत् इति अहरिष्यत् इति तदनन्तरं प्र इति स्थापयामः प्राहरिष्यत् इति
तर्हि पराजेष्यत
तत्र एव इति अस्ति तत्र एव नाम किम्
वक्षसि एव
वक्षसि इति नाम किं वक्षसि इति तत्र विभक्तिका तत्र किमर्थं तत्र वक्षसि इति अस्ति तत्र वक्षसि इति तत्र विभक्तिका
सप्तमी
समीचीनं किमर्थं सप्तमी स्वीकृतमस्ति अत्र तत्र यत्र तत्र समीचीनं तत्र प्रहरति प्रहारं कुत्र भवति तत्र प्रहारः कुत्र भवति तत्र देहस्य भागः इति कृत्वा समीचीनं तत्र कुत्र इति अतः तत्र दुर्योधनं प्रहरति किन्तु कुत्र वक्षसि एव प्रहरति अतः तत्र वक्षसि इति स्वीकृतं समीचीनं अतः तत्र कोऽपि जानाति वा तत्र
ऋतवान्
इति प्रायशः अस्ति खलु महोदय ऋतवान् प्रहृतवान् इति प्रायशः स्यात् प्रहृतवान् अथवा प्रहारं कृतवान् इति स्वीकुर्वन्मेकेव
तत्
अस्तु अतः लक्ष्मी भगिनी इदानीं तत्र एतद् स्वीकरोतु तत्र प्रहारं कृतवान् स्यात् इति यदि भीमः दुर्योधनं
वक्षसि एव प्रहारं कृतवान् स्यात् तर्हि
इदानीं पराजेष्यत तत्र पराजेष्यत तत्र जयत् तत्र जेष्यत इति अस्ति जेष्यत् पराजेष्यत इति तत्र आत्मनेपदी धातु वा अथवा तत्र किम् आत्मनि
जयति इति परस्मैपदी यदा परा उपसर्ग भवति तदा आत्मनेपदी भवति इति अस्ति केवलं तत् सूत्रम्
अत्र अस्तु जयति पराजयते
पराजयते एव भवति पराजयति न भवति इति अस्ति
समीचीनं अतः तत्र आत्मने पराजयते इति आत्मनेपदी तत्र पराजेष्यत तत्र परा तत्र प्रायशः तत्र पराजित जितवान् इति वा तव तु तत्र जितवान् पराजितवान् तर्हि पराजितवान् स्यात् इति समीचीनं
प्रहरितवान् अपि साधु महोदय
प्रहरितवान्, ओ प्रहरितवान्, अस्तु धन्यवादः भगिनी, हा प्रहरितवान्, हरितवान् इति प्रहरितवान्, समीचीनं भगिनि, हा न श्रुतवान् भव किन्तु समीचीनमेव, हा धन्यवादः भगिनि, हा अस्तु तर्हि तत्र इदानीम् अभ्यासः अपि जातः, तत्र लृङ्लकारस्य अपि तत्र अर्थः नाम तत्र यद् न अभवत् अपि तत्र क्रियापदद्वयमस्ति, कार्यकारणभावः अस्ति तत्र प्रथमभागस्य द्वितीयभागस्य तयोः मध्ये कार्यकारणभावः अस्ति, यदि तर्हि इति तत्र प्रयोगः, अतः तत्र लृङ्लकारस्य क्रियापदद्वयं तत्र क्रियापदद्वयं तयोः एव तत्र लृङ्लकारस्य प्रयोगः भवति तयोः एव. अस्तु समीचीनम्, अस्तु इदानीं समयः अपि जातः, अस्तु तत्र रघुवीरानन्दस्वामी भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय.
पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः महोदय.
नमस्कारः महोदय, धन्यवादः.